సర్వేభ్యో నమస్కార. సిద్ధాంతకౌముద్యాః అనంతపుల్లింగప్రకరణే ఏకవింశః పాఠః నవంబర్ మాసస్య ఏకవింశః దినాంకః. క్షమ్యతాం, తత్తు గతసప్తాహస్య అద్య అష్టావింశః దినాంకః. ఏనాఖ్యతమాంనాయ మధిగమ్య మహేశ్వరాత్ సూత్రం వ్యాకరణం ప్రోక్తం తస్మై పాణినియే నమః. వాక్యకారం వదవ్యం హర్షకారం పతంజలిం పాణినిం సూత్రకారం చ ప్రణతోస్మి మునిత్రయం. మునిత్రయం నమస్కృత్య తదుక్తీశ్వరి భాసిత వ్యాకరణ సిద్ధాంత కౌమిదీయం విరచ్యతే. మపర్యంతస్య త్వ అహ ఆదేశః శేషే లోపః ఇత్యనేన అజ్ ఇత్యస్య లోపః యే ప్రథమయోరం ఇది ప్రత్యయస్య స్థానే అమాదేశః తినయం భవతి త్వ ఇత్యాదేశః మధ్యే లోపః అమ్ తిలిత్వా త్వం ఇతి రూపం. ఏవం అహ అమ్ ఇత్యుక్తే అహం ఇన్ యాక్చువల్ ప్రక్రియ ఇన్ ద లోపాద్ ఆకార గోసవ బికాజ్ యు డో త్వ అజ్ ఇదో అతో గుణే అండ్ దెన్ శేషే లోప సో దేర్ ఇస్ నో అ. And this is just a representational thing. So you'll have tu am and it becomes tvam, ah am and it becomes aham. Au prateye pare yuvao jivachane ityanena ishvat shabdasya yuva adeshaha asvat shabdasya cha ava adeshaha prathamayasya jivachane bhashayam ityanena antyasya అర్థాత్ దగారస్య స్థానే ఆత్వం భవతి ఏ ప్రథమయోరం ఇత్యనేన ప్రత్యయస్య అమాదేశః యువ ఆ అమ్ ఇత్యస్య మిలిత్వా యువాం ఇతి రూపం. ఏవం అహం శబ్దస్య ఆవ ఆ అమ్ ఇత్యతే ఆవాం. సో ప్రమాయకవచనే ఇత్యనేన త్వ మ ఆదేశః ఆదేశౌ భవతః. ద్వితీయాయాం చ ఇత్యనేన ఆత్వం ఏతత్వయోరం ఇతి అమహత్స్థానే అమేవ భవతి. త్వ ఆ అమ్ ఆత్వమస్తి త్వాం ఇతి రూపం. ఏవం మ ఆ అమ్ ఇత్యస్తుతే మాం త్వాం మాం ఇతి రూపం. ప్రత్యయే రూపం తు సమానం, కింటు ఆత్మవిధాయకం సూత్రం భవతి ద్వితీయాయాం చ. ప్రథమావిభక్తౌ ద్వివచనే ప్రథమాయాశ్చ ద్వివచనే భాషాయాం ఇత్యనేన ఆత్మం, అత్ర ద్వితీయాయాం చ ఇత్యనేన ఆత్మం రూపం సమానం. యువాం ఆవాం. షస్ ప్రత్యయే ప్రకృతేః అర్థాత్ మపర్యంతస్య కోపి ఆదేశః నాస్తి. దకారస్య ద్వితీయాయాం చ ఇత్యనేన ఆత్మం. షస్ ప్రత్యయస్య షసోన ఇత్యనేన నకారాదేశః అస్ ఇతి భవతి అకారస్య స్థానే నకారాదేశః. ప్రత్యయ ప్రకృతౌ యుష్మ ఇతి తథైవ అస్తి నకారస్య స్థానే ఆత్మం నకారః. శతః సకారస్య సంయోగాంతస్య లోపః ఇత్యనేన లోపే యుష్మాన్ అస్మాన్ ఇతి రూపద్వయం. అగ్రే సమ ద్వితీయా విభక్తి ప్రత్యయ प्रत्यये परतः किं भवेत् इति पश्यामश्चेत् योचि इति सूत्रम् पदद्वयं विद्यते यः असि युष्मदस्मदोरनादेशे इति पूर्णम् अनुवर्तते. युष्मदस्मदोः अनादेशे सति इत्यर्थः. अनयोः यकारादेशः स्यात् अनादेशे अगादौ कर्तः. युष्मदस्मदोः यकारादेशः नाम अन्त्यस्य यकारादेशः भवति. अनन्त्यस्य इत्यनेन अन्तादेशः कदा भवति? अचि अगादौ विभक्तौ कर्तः. अनादेशे यदा विभक्तेः कोऽपि आदेशः न कृतः. सदित् सूत्र अप्लैज ओन्लि वेन् देर् हेस् बीन् नो आदेश धन् फार् द विभक्ति. सो इफ् यु रिमेम्बर् इन् आल् द प्रीवियस् सिक्स् केसेस् तदत्र ञप्रथमयोरम् इत्यनेन विभक्तेः अमादेशः कृतः. शस्त्वस्य ये तु शसोन इत्यनेन आदेशः कृतः. यत्र आदेशः नास्ति अनादेशे विभक्तौ, सो वेन् देर् हेस् बीन् नो आदेश धन् फार् द विभक्ति, देर् आर् टु सूत्रस् विचार्य. वन् इस् योचि एण्ड् अदर् इस् काल्ड् युष्मदस्मदोर् अनादेशे. युष्मदस्मदोर् अनादेशे इस् अ जनरल् सूत्र विच् टेल्स् वेन् देर् हेस् बीन् नो आदेश फार् द विभक्ति इज् इट् आत्वा, आत्वं विधीयते. योचि इत्यनेन अजादौ अनादेशे यत्वं विधीयते. सो दिस् इस् पाणिनिस् यूजुवल् वे आफ् स्टडिङ्ग्. हि डज़न्ट् से हनादौ आत्वम् अजादौ यत्वम्. हि गिव्स् आत्वा एस् द जनरल् and then makes yatra of as a specific case. So by elimination ajadav yatram bhavati, haladav atram bhavati, right? So now ajadav starting from tritiya, anywhere if there has been no adesha for the vibhakti, yadi sa vibhakti hi ajadir vibhakti hi, tarhi antyasya sthane yatram bhavati, yadi haladir vibhakti hi, tarhi atram bhavati. युष्मद् आ अथवा अस्मद् आ इत्यस्ति एण्ड् देर् इस् नो आदेश इट् इस् बीन् टोल्ड् फार् टा. समावेकवचने इति सूत्रम् अधीतम्. एकवचने युष्मदस्मदोः मपर्यन्तस्य त्व म आदेशो भवतः. अत्र त्व अद् आ म अद् आ अथवा गुणे इत्यनेन गुणे कृते त्वद् आ मद् आ इत्यस्ति. इदानीम् अजादित्वात् since the vibhakti is ajadi and there has been no adesha, we have yochi. Yochi itchenena dakarasya yakara adeshe trayi a traya eva mayi a maya iti rupam. Ajayam sutram bhavati ishvadasmador anadeshe. ईश्वरस्मदोः अनादेशे इति खेदः. अष्टन आ विभक्तौ इति सूत्रात् आ इति अनुवर्तते. सो दिस् इस् द फस्ट् सूत्र इन् द ईश्वरस्मद् प्रकरण. स्टार्टिङ्ग् फ्रोम् दिस् 7 to 86 फोर् मोर् देन् 15 सूत्र पाणिनि प्लीज़् ओन्ली वित् युष्मद् एण्ड् अस्मद्. सो दिस् द फस्ट् प्रकरण. आ इति अनुवर्तते. अनयोः आकारः स्यात् अनादेशे हलादौ विभक्तौ. So you see, Dikshitan has introduced this halado vibhaktam in sutra artha. It is not actually there in the sutra. Sutra nasti anuvrittam api nasti halado vibhaktam api. Kintu abhavadam pariganya eva. So always with polyphenia karana, you should first understand abhavadas and then understand the utsarga. Adhaeva kevalam utsarga madhitya adi prakriya salaitam prayatyate sarhi doshaha bhavanti. You cannot apply any Utsarga Sutra without first understanding all the exceptions. You have equivalency, but unless you have studied Akasavarna Dirghaha, you cannot apply equivalency, you would go wrong. Okay. So, sarvatra tathaiva, tathaiva atra, adau apavada vishayam parikalpya, arthata, agadau vibhaktau yochi itinena ekram bhavati iti manasi nidhaya, haladau vibhaktau akaraha bhavati. This is Sutra Arthaha, likshate dikshitaihi. युष्मद्भ्याम् इत्यस्ति अस्मद्भ्याम् इति युवावौ द्विवचने इत्यनेन युव अदुभ्याम् आव अदुभ्याम् फार् एकवचन समावेकवचने इस् द जनरल् सूत्र. वेर् देर् आर् एक्सेप्शन् Pahasav is an exception. For Divasana, in all Divasanas, without exception, we apply Yuvavav Divasane. For Bahuvachana, there is no Mupadhyantadesha except Yuyavayojasi. In Bahuvachana, Yuyavayojasi is the only sutra which gives an adesha for Mupadhyanta. All other cases, you hear Yushma and Atma. That's why that Prakriti part of it is heard only in Bahuvachana. You have Yushman, Yushmakam, Yushmabhihi, Yushmatu, or Yushmatu. Everywhere you hear the actual Pratipadika only in Bahuvachana. Because everywhere in Ekavachana, Ausargikataya Sama Ekavachana iti bhavati, Divasane Sarvatra Yuvavo Divasane iti bhavati. Yuva adu bhyam, ava adu bhyam, ato gune iti pararuke, yuva adu bhyam, ava adu bhyam, haladir rasaktihi tasmata akaradeshaha, yuva a bhyam, ava a bhyam iti bhavati, ishwarasmadurana adesha iti sutrena. Kavamadir Hekrute, Yuvabhyam, Avabhyam. Traya, Yuvabhyam, Maya, Avabhyam. This is very similar. Again, there is no Adesha for Pratyaya. There is also no Adesha for the Maparyanta part of it. So, the only Adesha here you have is for Dakara. Ishmaya Smudurana Adesha Ittenena Atram Bhavati. So, Ishma Abhis. Asmaabhis, Kavana Dirke Krute, Ishmaabhis, Asmaabhis, Sattva Vishwaruhu, Karavasaniya Visarthiniyaha, Vistra Visarthayohu Krutayohu, Ishmaabhihi, Asmaabhihi. Agre, Nye Chattayaha. Sattva Sri Bhakta Vekavachane, we have Nye. Nye Chattaye, Tubhyamahyam Nani. Ishwalasvalo Ranadeshe Ittitaha Ishwalasvalo Ho Jenuvartate Mapariyantasya Tridhikaraha Anayoho Mapariyantasya Subhyamasyam Saha Nani Nani Iti Nye Ittisya Satyami Ekavasanam. You have Nye, the Pratyaya Nye as a Pratipadika, Ekarantam Pratipadikam. Nye Ittismatu Satyami Yuhakto Ekavasane Nye Pratyaya. For the Pratipadika Nye, you do the Nye Pratyaya where you have E. You have Nye E. Itayavayavaha, itayana ayadeshe kute, ngani. So ngani is a saptami ekavachana of the Pratipadika nye. It means nye pratyaye pare. Itya artha. Ishmana sandhu oho, tubhya masya iti adeshau bhavataha. Nye pratyaye. Nye ityasi, nye prathamayoram iti. So nye prathamayoho itayana prathamaditya vibhaktyoho. Tathayva nye pratyayasya. Amadeshah bhavati. So, adho pratyayasya amadeshah. Sataha, mapariyantasya tubhya mahyam nyayi. Ityanena, tubhya adu am, mahya adu am. Ato gune, iti paraloke, tubhya adu am, mahya adu am. So, since there has been an adesha for the pratyaya, you cannot use yoshi. I mean, since it's an adhari vipati, it should have been yoshi, but you cannot use it. So when it is not there, sheshe lopaha. So when you cannot have either asva or yatva, you will have lopa. Sheshe lopaha ityanena adu ityasya lope. Tubhya am, mahi am. Tubhyam and mahyam. Wherever there is a new sutra, he shows, will it apply for Sadanta, Sadanteti, Bhavati, Tudhyama Phyamaniyeti, Lena Pradhani, Gaunesha, Rupam, Bhavati. Madhakya Sarvatra, Sadantaviti, Vidyata Eva. Subhyam युवाभ्याम इति समानम्। सो भ्याम इज द सेम एज वी डिड बिफोर। प्रत्ययस्य आदेशः नास्ति, प्रकृतेः युवावौ द्विवचने इत्यादेशः। अनन्तरम् ईश्वरस्य आदेशे इत्यनेन आर्थम् युव आभ्याम् युवाभ्याम् आवाभ्याम् इति रूपम्। प्रत्ययः चतुर्थी बहुवचने। सो दिस् इस् वन् आफ् द वेरि फ्यू शब्दस् वेर् देर् इस् अ डिफरेन्स् बिट्वीन् द टू भ्यस्। यद्यपि चतुर्थी विभक्तावपि बहुवचने भ्यस् प्रत्ययः, पञ्चमी विभक्तावपि भ्यस् प्रत्ययः। दिस् इस् probably the only shabd, the only two shabdas where you have a difference in form between the bhyas of chaturthi and the bhyas of panchami. So bhyasobhyam iti sutram paradvayam vidyate. You can actually split this in two ways. Bhyasobhyam iti, you can split it as bhyasaha bhyam, where you have bhyasar bhyam hashita ityanena utve आद्गुणे यगेत भ्यसो भ्यम्। यू कैन ऑल्सो स्प्लिट इट एज भ्यसो भ्यसः अभ्यम्। सो वन यगेत उत्वा वै अतोरोर प्रसाद प्लुते एंड देन यू हैव आद्गुणः एंड पूर्व रूप। सो बोथ वेज इज करेक्ट। सो वी विल सी व्हाट इज वन दीक्षित सेज अबाउट इट, विच वन टू टेक। ईश्वरसद्भ्याम् रसो इत्यतः ईश्वरसद्भ्याम् इति अनुवर्तते। भ्यसः भ्यम् अभ्यम् वा आदेशः स्यात्। सूत्रार्थ लिखित इन्कार्पोरेट्स् बोत्, यू केन् टेक् इट् एस् भ्यम् आर् अभ्यम्, बोत् वेज़् द रूप विल् बी द सेम् इस् वाट् ही सेड्। आद्यः शेषे लोपस्य अन्त्यलोपत्व एव। सो द फर्स्ट् वन् भ्यम् केन् बि कन्सिडर्ड् if you are on the party which says sheshe lopa is antya lopa. Yadi sheshe lopaha antya lopaha iti pariganyate tadaiva bhyam adeshaha iti svikartum shakyate. Remember sheshe lopaha ityatra pakshadvayam vidyate. Antya lopaha iti ekas pakshaha, sheshe lopaha atha tilopaha ityaparaha. Siddhante tilopaha ityeva asmabhihi angikrutye गम्यते। किन्तु दादर पार्टी इज ऑल्सो इक्वली स्ट्रॉन्ग। सो एवरीवेयर इन युष्मदनस्म दीक्षित कंसिडर्स बोथ एंड ही ट्राइज टू गिव सोल्यूशन फॉर बोथ। शेषे लोकस्य अंत्यलोकत्वेव तत्र अंगवृत्त परिभाषया एतम् न। सो व्हाट इज दैट वी विल सी। युष्मद् भ्यम् इत्यस्ति। नाउ शेषे लोपः इत्यनेन अन्त्यस्य लोपः कृतः क्रियते। सो यु हाव् भ्यस् हस् बीन् रिप्लेस्ड् बै भ्यम्, भ्यसो भ्यम्। यु आर् इन् द फस्ट् आदेश स्टेटिङ्ग् द आदेश भ्यम्। सो भ्यस् हस् बीन् रिप्लेस्ड् बै भ्यम्। युष्मद्भ्यम् इत्यस्य शेषे लोपः इत्यनेन लोपः करणीयः, अन्त्यस्य लोपः क्रियते। युष्मभ्यम् दकारस्य लोपः कृते। इदानीम् अकारान्तत्वम् आयातम्। अकारान्तत्वे सति बहुवचने धल्येत् इति एकं प्राप्नोति। अदन्तादङ्गात् बहुवचने धनादौ बहुवचनप्रत्यये परे अदन्तस्य अङ्गस्य एकं भवति। रामाभ्यः विशिष्यते रामेभ्यः इति यथा भवति तथा अत्रापि एकं भवतु इति आक्षेपः। अङ्गकार्ये कृते पुनर्नाङ्गकार्यम्। We saw this just before, okay? We saw this earlier. So, angavritte na punarvithihi iti uchyate. So, since we have already done the angakarya, which is sheshe lopaha, which exists within the anga, even if we take it as angadhikaranakam karyam, sheshe lopaha iti ange eva pravrattam karyam, idanim tatraiva angasya ekam kartum ishyate na bhavati. अंगवृत्त परिभाषा बिकॉज ऑफ दिस परिभाषा वी कैन नॉट डू एत्व वंस वी डू शेषे लोप। सो दिस वर्क्स आउट व्हेन इट इज शेषे लोप इज अंत्य लोप। ओके, शेषे लोप इज कंसिडर्ड टू बी तिलोप एंड आदेश इज भ्यम, इट विल बिकम युष्म भ्यम। यू डू नॉट हैव द राइट फॉर्म। अतएव अभ्यम तो पक्षद्वये साधु। अर्थात् शेषे लोपः अन्त्यलोपः इति पक्षेपि अभ्यम् इति आदेशे रूपं साधयितुं शक्यते. शेषे लोपः इति तिलोपः इति पक्षेपि अभ्यम् आदेशे रूपं साधयितुं शक्यते. अन्त्यलोपः इति पक्षे अतोगुणे इति पररूपेण रूपसिद्धिः. सो यु हाव् युष्मद् भ्यस् किडु युष्मद् अभ्यम्. इफ् यु रिमूव् दकार यु हाव् युष्म अभ्यम्. इदानीम् अतोगुणे इत्यनेन पररूपे युष्मभ्यम् इत्येव भवति. तिलोपः इति पक्षे तु अद् इत्यस्य लोपः युष्म अभ्यम् युष्मभ्यम् इति रूपम्. सो इन् बोत् केसेस् अभ्यम् विल् वर्क्. मध्यम् आदेशाभ्यम् विल् वर्क् ओन्लि इफ् यु कन्सिडर् शेषे लोपः एस् अन्त्यलोपः. युष्मदभ्यस् और् अस्मदभ्यस् भ्यसोभ्यम् इत्यनेन अभ्यम् इत्यादेशः इति स्वीकुर्मः. युष्मद् अभ्यम् शेषे लोपः इति तिलोपे युष्मभ्यम् अस्मभ्यम् तुभ्यम् युवाभ्याम् युष्मभ्यम् मह्यम् आवाभ्याम् अस्मभ्यम् इति रूपम्. पञ्चमीविभक्तौ सूत्रमस्ति एकवचनस्य च पदद्वयम् युष्मदस्मद्भ्याम् लघुवश् इत्यतः युष्मदस्मद्भ्याम् इति अनुवर्तते. पञ्चम्या अत् इति पूर्णम् अनुवर्तते. सूत्रक्रम एक्चुली युष्मदस्मद्भ्याम् लघुवश् शसोन भ्यसोभ्यम् पञ्चम्याः अत् भ्यसः भ्यम् भवति पञ्चम्याम् भ्यसः. सो इन् पञ्चमी भवति भ्यम् भ्यस् विल् बि रिप्लेस् बै अत् तत्र यः विष्मत् अस्मत् एण्ड् देन् हि सेस् एकवचनस्य च इन् पञ्चमी फार् एकवचन आल्सो यु हाव् अत् अस्य आदेश. सो आभ्याम् पञ्चमी एकवचनस्य अत् स्यात्. पञ्चमी एकवचनविभक्ति नसि इस् रिप्लेस् बै अत् युष्मद् अस् अस्ति एकवचनस्य च इत्यनेन अत् आदेशः. युष्मद् अत् अस्मद् अत् त्वमावैकवचने इत्यनेन मपर्यन्तस्य त्व आदेशः अथवा म आदेशः. त्व अद् अत् म अद् अत् अस्ति अतोगुणे इति पररूपे त्वद् अत् मद् अत् शेषे लोपः. सो देयर् इस् एन् आदेशे यु केनाट् अप्लै यत् वा रात्व शेषे लोपः इत्यनेन लोके कृते त्व अत् म अत् त्वत् एण्ड् मत् लिखितस्य लकेश्च इति सुवचम्. सो अगेन् लैक् वि हेड् इन् प्रथमायाश्च द्वितीय अपि अत आदेशो भवति इति वक्तुं शक्यम्. इट् वुड् हव् बीन् बेटर् टोल्ड् सुमतम् इत्युक्ते किं लाघवम् अस्ति. सो एकवचनस्य च इस् लाङ्ग् सो यु कुड् हव् शार्टन्ड् इट् टु नसेश्च. Okay, there are a couple of questions. So, Bhyam Adesha, why is the ending Makara not considered an it? भ्यम् इति आदेशः क्रियते हसोभ्यम् इत्यनेन. सो वै आर् वि नाट् अप्लैङ्ग् हलन्त्यम् आन् द आदेश वै इस् मकार नाट् एन् इट् इस् अ क्वश्चन् शुड् बि एबल् टु आन्सर् यस्. रविचन्द्रजी सेस् न विभक्तौ सुस्माः. विभक्तौ इन् विभक्ति सवर्गसकारमकाराणां विसंज्ञा नास्ति. So Makara in Vibhakti sense, Thani, Thani Adhavena, Jamityati Pratyaha, Vibhakti Pratyaha Itya Pariganyate. So Na Vibhakta Utasmaha Iti Nishedhate, Itsamya Na Bhavati Makarasya. Second question. Well, I've been thinking about this, but I do not know if my answer is correct. I wanted to ask, discuss this with one of my teachers about the Angavritta Paribhasha. So I'm not clear of where the Paribhasha operates. Because in all the cases we are saying, Angavritta Punarvritta Avidhi, Ekasmin Angakarya Krute Punah Angakaryam Na Bhavati. But in Yishmada Smar Shabda, everywhere we do two Angakaryas at least, like in most of the cases. We do one Adesha for Maparyantasya and we do another Adesha for the Antya part of it. We do Atrayatva or Lopa. So everywhere it is two Karyas. So why does the Paribhasha not apply there? It's a question. For example, in Chatarthi Ekavachana, Master Gautandi says, we did Subhyamakhyam Nai and we did Sheshe Lopa. So why is Angavritta Paribhasha not applying there? Okay. So the answer, as I told, I'm still considering it. I need to confirm. There are two possibilities. One is Sutra Vachana Samarthya. So Panini himself, he told a set of sutras for the first part, Maparyantasya. And he has told for Yishmada and Asmat. So if we do not do any of them, the sutra itself will go waste. There is no possibility of applying it anywhere, because in all cases you will have Maparyanta Adesha and you have the other sutras, okay? Maybe that is one reason. The second could be is that the Paribhasha is Anitya, okay? It has been proved to be Anitya. It is not a Sarvatrika Paribhasha, so it is Anitya. So treating it as Anitya, we can do it. Because I'm not sure Vachana Samarthya, if it can be completely justified. I'll look at it and I'll let you know the correct one. These are my two thoughts currently, and this is only my thought. So I'll have to look at, I'll have to ask my teachers and let you know. Yeah, I mean, you could say that, I mean, when you look at it, it appears like this, like, it is not in the same part of the Anga. Like, you have, because of Maparyantasya, you have it as two different parts, and we are doing in different parts. We could argue that, but that is not. I don't know which of these arguments will actually hold when we ask Vaiyakaran. They might have some objection. So this is also an idea. I'll ask my teachers, I'll put forth all these and I'll find out what is the correct samadhana for it. That is both, in both cases, they say it is Anitya, that is there. The Paribhasha is, because there are many cases where it is overruled. So that is there. So, that is what? That is the final, now finally we have that, that it's an Anitya, but it is certain convincing. You use it when you want and you don't use it. But that happens in many cases in Vyakarana actually. So, trying to find out if there is any other samadhana which you can give. But that is that. The Paribhasha is Anitya only. I mean, it does not apply everywhere. It applies only in a few cases. So. Okay. Coming back. Kvatu. Matu. Ivabhyam iti samanam. So in Dhyam it is the same. Bahuvachane. Santami Bahuvachane. Dhyas Pratyaha, Yushmadhyas, Asmadhyas, Sityasthi, Panchamya Atu, it is Uttam, Panchamyaha Atu, Yushmadhyam Nasosh, Ityataha, Yushmadhyam, Ityanavattata, Dhyasobhyam, Ityataha, Bhyasaha, Ityanavattata. So, Abhyam, Panchamyaha, Bhyasaha, अथ स्यात्। तृतीयस्त्रीलिंग पंचमी यहाँ अथ आदेश है। पंचम्या चैतन्येन भ्यसः स्थाने अथ अनेकाल्पात् सर्वादेशः युष्मदत् अस्मद् अथ शेषे लोपः मपर्यन्तस्य कोऽपि आदेशः नास्ति बहुवचने आदेशः कृतः इत्यतः अत्रयत्रयोः प्रवृत्तिः न शेषे लोपः इत्यनेन लोपे युष्म अत् अस्म अत् इत्यस्य युष्मत् अस्मत् स्वत युवाभ्याम् युष्मत् मत् आवाभ्याम् अस्मत् तवममौ नसि वेरि आब्वियस् युष्मदस्मदोः इति अनुवर्तते मपर्यन्तस्य इत्यधिकारः अनयोः मपर्यन्तस्य तवममौ स्तः नसि So you have Tava and Mama directly as the Adesha for Nath. There is also one more sutra for the Pratyaya. Yushmanasmadhyam Nasaha Ash. This is Chedaha. Pashtam. There is no anuvritti anywhere. So wherever there is no anuvritti and the sutra is very obvious, Dikshita writes Pashtam. So this is very very simple. Yushmanasmadhyam. पञ्चमी विभक्तिः तस्मादित्युत्तरस्य इत्यनेन ईश्वरस्मध्याम् परस्य नसः इति षष्ठी नसः स्थाने अश् इति प्रथमा अश् इति आदेशो भवति षित्वात् सर्वादेशः अनेकाल् षित् सर्वस्य षित् शकार इस् इत् इट् विल् बि सर्वादेश युष्मद् अस् अस्मद् अस् नसोषित्यनेन अ इति आदेशः अस् इत्यस्य स्थाने युष्मद् अ अस्मद् अ सममौ नसि इत्यनेन तव अद् अ मम अद् अ अतो गुणे तवद् अ ममद् अ शेषे लोपः इत्यनेन लोपे तव अ मम अ तव अण्ड् मम तत्र फार्म् ओस् प्रत्ययः षष्ठी द्विवचने युष्मद् ओस् अस्मद् ओस् इत्यस्य युवावो द्विवचने इत्यनेन अपर्यन्तस्य युवादेशः अवादेशश्च अतो गुणे इति पररूपे युवद् ओस् आवद् ओस् सो देर् हेस् बीन् नो आदेश गिवन् फार् ओस् प्रत्ययस्य स्थाने कोऽपि आदेशः न कृतः स्वादेशे अकृते सूत्रद्वयम् युष्मदस्मदोर् अनादेशे योचि So the vibhakti is ajadi vibhakti, we have yoti, yastam bhavati, akarasya sthane yakare yuvayu os avayu os. Ritva visarga yoho krita yoho, yuvayoho avayoho, iti rupam. अग्रिमं सूत्रमस्ति साम आकम् सामः आकम् ईश्वरस्पध्यां रसोष् इत्यतः ईश्वरस्पध्याम् इति वर्तते आभ्यां परस्य सामः आकम् स्यात् सो वेन् फालोस् द साम विच् फालोस् ईश्वर अस्मत् यत् आकम् अस्य आदेश But where is Saam? It's a question. What is this Saam? Pratyaha to Aam. Plus Os Aam. Aam iti Pratyaha. Saamaha iti kinattham uchyate. Pakarena sahitaha Aam Saam. So Saam includes Aam plus a Pakara. So where do we have Pakara? Aam is Sarvanamna Sutra. It is Sutra Masthi. Sarveshaam. Sarva Aam iti Sutra. आमि परे सर्वनाम्नः अदन्तात् सर्वनाम्नः परस्य आमः सुप्त् इति आगमः विधीयते सो बिकास् आफ् दट् इन्क्लूडिङ्ग् दट् सुप्त् यु पाणिनि चेत् सामः बट् हौ डु वि गेट् सुप्त् इन् दिस् केस् इट्स् द नेक्स्ट् क्वश्चन् युष्मद् अस्मद् दे आर् नाट् अकारान्तः अकारान्तत्वं नास्ति कथं तत्र सुडागम एव नास्ति किल इति प्रश्नः. सो युष्मद् आम् इति स्थिते अनन्तत्वाभावेन कुतः प्रसक्तिः नास्ति. So since it is not an ananta at all, you do not have sam. Sheshe lokena antya loke krute anantatva prasakti. No, the logic is once you do sheshe loka, if you do sheshe loka, and consider sheshe loka as antya loka. Sheshe lopaha antya lopaha iti pakshe, dakarasya loke krute, you will have yushma, am, and once you get akar answer, you can do suragama for the pratyaya. So you can do suragama, then you would have sam. So when will you have sam? Only after you do sheshanopa. But you cannot do sheshanopaha before this akamaresha. Why? Sheshanopaha says when there is no atva or yatva, then only you get sheshanopa. And if there is no adesha for the pratyaya, satyasya yadi kopi adeshaha na krutaha, tarhi sheshelopaha ityasya prasaktihi nasti. So before you do akam adesha, you cannot have sheshelopa. Without sheshelopa, you cannot have sakara. And without sakara, you cannot do akam adesha. He says kamaha akam and not amaha akam. So why? That's the question. How do we solve this? किमर्थम ससुत्क निर्देशः इति प्रश्नः. भाविनः सुतः निवृत्त्यर्थम ससुत्क निर्देशः. सो वाणी नोज दट इन द फ्यूचर देयर विल बी सकार सुत सुडागम. सो टू प्रिवेंट दट सुडागम ही डायरेक्टली गिव्स अ ससुत्क निर्देश. सो इवन बिफोर देयर इज सुडागम यदा आम इत्यवस्थायाम् अस्ति तदैव आसम इति आदेशः क्रियते. किन्तु आदेशे कृते पुनः शेषे लोके कृते अपि सुत् मा भूत् भाविनः सुतः निवृत्त्यर्थम्. सो द सुत् विच इज अस्यूम आई मीन विच वुड बी अकरिंग इन द फ्यूचर. सो टू प्रिवेंट दट डायरेक्टली नाउ ही सेज सामः. इट डज नॉट मीन साम हैज टू बी रिप्लेस्ड बाय आकम. इट इज एक्चुअली आम विच इज रिप्लेस्ड बाय आकम. बट सिंस पाणिनि हैज टोल्ड सामः even after we do the adesha and we do sheshanopa, we cannot do sudhagama. It's the tatparyam. Bhavinaha sutaha nirasyartham sa sutkan vadeshaha. Sheshanopaha iti antyanopaha iti pakshayevayam. So we require this only when we treat sheshanopa as antyanopa. If sheshanopa is treated as tilopa, then even when we do akam, you remove the adur part of it. So you have yushma akam and asma akam. There is no akara. Akara ha nasti chet ani saranamna sute iti sudagama ha prasakti hi nasti. So sheshe lopa is treated as tilopa. There is no prasakti of sudagama. There is no option for getting sudagama. So you don't need sasukta nirdesha. Sheshe lopa ha antya lopa ha iti pakshe. भाविनः सुतः निवृत्त्यर्थं ससुप्त निर्देशः. तया विष्मद् आम् अस्मद् आम् साम आकम् इत्यनेन आम् इत्यस्यैव आकम् क्रियते. शेषे लोकः इति लोके इह विष्णु आकम् युष्माकम् अस्माकम्. विभक्ति सप्तमी विभक्तौ एकवचने युष्मद् इ क्वेश्चन. तिलोप पक्षे कथम सामाकम. एज़ आई टोल्ड सामाकम द स्थानी इज नॉट कंसिडर्ड एज साम. इट इज कंसिडर्ड एज आम. आमः स्थाने आकम इत्येव सूत्रार्थः. So why that extra sakara is if there is a possibility of getting sakara in the future to prevent it. Okay. So sthani is am and so you do akam. And later there is no prasakti of getting sakara, so we just leave it. That is all. So we have yushmad e, asmad e. Tvama veka vachane, etyanena tva ma adeshaha. असोगुणे इति पररूपे त्वद् इ मद् इ अजादिः प्रत्ययः अनादेशः. देयर इज नो आदेश फॉर प्रत्यय तो योचि इत्यनेन एकारादेशे त्वयि मयि के रूपम त्वयि युवयोः इज द सेम एंड यू हैव युवावो द्विवचने एंड योचि देयर इज नो आदेश फॉर द प्रत्यय सो त्वयि युवयोः शिष्मद सु अस्मद सु शिष्मद अनादेश है So here there is no adesha either for the pratyaya or for maparyanta. In both cases there is no adesha. So you have dakara sthane atvam bhavati. Ishma asmara no adesha. Since this is the halari vibhakti, you have atvam, ishma, a, su, asma, a, su. Ata savarna dirkhaha. Ekkenena savarna dirkhe. Ishma su, asma su. Vai ivayoho ishma su, vai avayoho asma su. Finally, through the prakriya of Yushmadu and Asmata. Any questions? That is one of the supporting factors for Sheshe Loka being Antya Loka, is what I mean. That is why you have, let's say, both parties being very strong here. So Panini probably teaches the Sheshe Loka as Antya Loka. So he had to tell that Sama Akam. Okay. When you have this Tiloka Paksha, for some other reason, let's say, we had to go for it because of some other reason, then that case Sama Akam does not make any sense. It could have said Amakam, but the Antyalopa Paksha is also there. So in that case, we need it. Amakam. Any other questions? Sera Samanayam, Hidamna Maheshwarat, Krishnam Vyakaranam, Proktam, Tatmai, Pandanaye, Namaha. अस्यकारं ब्रवीतुं भाष्यकारं पतञ्जलिम् पाणिनिं सूत्रकारं च प्रणतवस्त्रमुनित्रयम् मुनित्रयम् नमस्कृत्य तदुक्तीश्वरि भाव्यत अय्याकरणसिद्धान्तकौमुदीयम् विरच्यते